निरञ्जनं नित्यमनन्तरूपं भक्तानुकम्पा धृतविग्रहं वै ईशावतारं परमीशमिद्यं तं रामकृष्णं शिरसा नमामि।